ॐ कैलाशगिरिवरेरम्ये निवसन्तं सुशान्तिभिः तं मुनिं सततं वन्दे सदा कारुण्यरूपिणं यस्य स्मरणमात्रेण सिद्धो भवति साधकः सद्गुरुं तमहं वन्दे हैडाखानवासिनं यस्य कृपा कटाक्षेण धन्यो भवति मानवः तस्य पादयोरेकं प्रणमामि निरन्तरं कोमलं हृदयं यस्य कोमलं यस्य भाषणं दण्डोऽपि कोमलो यस्य कोमलाङ्गं नमाम्यहं दृष्टिं दयामयीं कृत्वा यः पश्यति चराचरं लोकोपकारनिरतो रागद्वेषादिवर्जितः सद्गुरुः सद्गुणाधारो ध्यानगम्यः सदाशयः सत्यं परं चिदानन्दं सस्मरामि हि सर्वदा हरिरेव हरेर्भक्तो हरेर्ध्यानपरायणः हरेर्नामामृतं पीत्वा हरेर्धाम परं व्रजेत् यो ददाति च बालानां सद्ज्ञानं तु सुदुर्लभं सर्वसाधनहीनोऽपि त्वमेकमवलम्बनं महामार्तण्डरूपेण मोहध्वान्तविनाशकः सर्वभूतात्मरूपोऽसि महेन्द्रस्य च जीवनम् ॐ नमोऽस्तु ते देवदयालुमूर्ते शिष्यानुरक्त शिवश्रेयकारिणि पापानि दुःखानि संहारकर्ता प्रणतोऽस्मि नित्यं करुणावतारिं ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्तिः शान्तिः शान्तिः।